एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली संखुवासभा जनपदे निर्माणाधीनायाः नवशत मेगावाट मितायाः अरूण तृतीय जलविद्युत दायोजनायाः चीनदेशेन सह सम्पृक्तस्य किमाथाङका प्रवेशबिन्दोश्च थलगतम् अनुगमनम् व्यददात्। प्रधानमन्त्री ओली गतदिने संखुवासभा जनपदम् गत्वा उत्तर दक्षिण भागस्य कोशी नद्या तटीय दुर्ग मार्गस्य सीमास्थितस्य सीमा सुरक्षा बलस्यापि अवलोकन निरीक्षणे अकरोत्। अवलोकन निरीक्षणयोः क्रमे प्रधानमन्त्री ओली आयोजनायाः कार्याणि निर्धारित समय एव प्रपूरयितुम् निरदिशत्। निवेशन समित्या तिसृणाम् विपुल जल विद्युत परियोजनानाम् कृते अष्टात्रिंशतः अब्जानाम् रूप्यकाणाम् वैदेशिक निवेशनम् स्वीकृतम् वर्तते। समितेः अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अध्यक्षतायाम् गतदिने उपविष्टेन समितेः पञ्चचत्वारिंशोपवेशेन विपुलस्य परियोजनात्रयस्य कृते अष्टात्रिंशतः अब्जानाम् अष्टषष्टेः कोटीनाम् च रूप्यकाणाम् निवेशनम् स्वीकृतमस्ति। सार्वजनिक नैज सहकार्यावधारणायाम् क्रियान्वयमानायाः 0.575 मेगावाट मितायाः क्षमतायाः धुन्सा खोला जलविद्युत परियोजनायाः कृते 17 द्वाषष्टेः कोटीनाम् चत्वारिंशतो लक्षाणाम् च रूप्यकाणाम् वैदेशिक निवेशनम् स्वीकृतम् इति समितेः प्रवक्ता धर्मेन्द्र कुमार मिश्रः अज्ञापयत। 75 मेगावट क्षमतायाः हिमचुली दोदी जलविद्युत परियोजनायाः कृते 10.91 लक्षाणाम् च रूप्यकाणाम् 65 मेगावट क्षमतायाः दुदखोला जलविद्युत परियोजनायाश्च कृते 10.43 कोटीनाम् 60 लक्षाणाम् च रूप्यकाणाम् निवेशनम् स्वीकृतम् इति असौ अवोचत। समितेः अध्यक्षः प्रधानमन्त्री ओली उपवेशे कोविड 19 नवीन रीत्या शिक्षितम् इति चर्चयन् अवदत् परियोजनायाः क्रियान्वयने जायमानम् विलम्बनम् निवारयितुम् नूतन प्रविधेः आवश्यकता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन दुरौषधोपचार परामर्शनस्य केन्द्र स्थानीय चिकित्सालयस्य रूपेण वीर चिकित्सालयः निर्धारितो वर्तते। कोरोना विषाणोः नियन्त्रणस्य उपचारस्य च व्यवस्थापनेन सह दुर्गम क्षेत्रस्य चिकित्सकानाम् सहजीकरणाय केन्द्रे वीर चिकित्सालयः प्रदेशेषु प्रदेशस्तरीयाः 7 चिकित्सालयाश्च दुरौषधोपचार परामर्शनार्थम् निर्धारिताः सन्तीति मन्त्रालयस्य सहप्रवक्ता डा समीर कुमार अधिकारी अज्ञापयत। पोखरा स्वास्थ्य विज्ञान प्रतिष्ठानस्य सेती प्रादेशिक चिकित्सालयस्य भरतपुर चिकित्सालयस्य सुर्खेत प्रादेशिक चिकित्सालयस्य कोशी चिकित्सालयस्य लुम्बिनी प्रादेशिक चिकित्सालयस्य जनकपुर चिकित्सालयस्य च चिकित्सकाः प्रदेशस्तरस्य दुरौषधोपचार परामर्शन सेवायै निर्धारिताः सन्ति। दुर्गम क्षेत्रस्य चिकित्सकान् संक्रान्त जनानाम् उपचाराय सहयोक्तुम् दुरौषधोपचार परामर्शन सेवा प्रारब्धा वर्तते एवं दुर्गम क्षेत्रे कार्यरतेभ्य चिकित्सकेभ्य उपचारस्य क्रमे कस्यामपि समस्यायाम् सृष्टायाम् सत्याम् दुरौषधोपचार परामर्शनस्य सम्पर्क व्यक्तिभ्यः चिकित्सकेभ्यश्च दूरभाष एसएमएस संक्षिप्त सन्देश इमेल वैद्युत सञ्जालानाम् माध्यमेन परामर्शाः प्राप्तुम् शक्यन्ते इति असौ अवोचत। मन्त्रालयेन केन्द्रे एकस्य सप्तसु एव प्रदेशेषु च सप्तानाम् चिकित्सालयानाम् च चिकित्सकाः दुरौषधोपचार परामर्शन सेवायाः सम्पर्क व्यक्तयोः निर्धारिताः वर्तन्ते। नेपाले कोरोना विषाणुना संक्रान्तैर्जनैः संख्याया लक्षद्वयम् अतिक्रान्तमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः ह्य सहस्रद्वयस्य 79.5% च संक्रान्तानाम् जनानाम् वर्धनेन सहैव संक्रान्तानाम् संख्या लक्षद्वयम् 79.3% च प्राप्तेति अज्ञापयत्। ह्य 10,081 निदर्शनानाम् रियल टाइम पीसीआर विधिना परीक्षणे विहिते सति काष्ठमण्डपु उपत्यकायाः 161.2% च जनैः सह आराष्टम् 179.5% च जनेषु संक्रमणम् पुष्टिभूतमिति प्रवक्ता डा गौतमः ज्ञापितवान्। ह्य 1,667 जनाः कोरोना संक्रमणात् मुक्ताः वर्तन्ते। साम्प्रतम आराष्टम अष्टात्रिंश सहस्राणि द्वादशाधिक नवशतं च कोरोना विषाणुना संक्रान्ताः जनाः सन्ति। कोरोना संक्रमणेन ह्य अतिरिक्ताः षड्विंशतिर्जनाः मृताः। नेपाले अद्यावधि कोरोना संक्रमणेन मृतानां जनानां समग्र संख्या सहस्रं चतुस्सप्तत्यधिकैकशतं च प्राप्यति। स्वास्थ्य मन्त्रालयेन ज्ञापितं वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य उपाध्यक्षाय वामदेव गौतमाय राष्ट्रिय सभा सदस्य रूपेण सांविधानिकं कार्यं कर्तुं मार्गः प्रशस्तीभूतोऽस्ति। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबराभिधस्य न्यायाधीशानां दीपक कुमार कार्किणः हरिकृष्ण कार्किणः विश्वम्भर प्रसाद श्रेष्ठस्य ईश्वरी प्रसाद खतिवडाभिधस्य च सांविधानिक न्यायपीठेन ह्यो नेत्रे गौतमाय अतिरिक्तं कार्यं न कर्तुं प्रदत्ताय अन्तरिमादेशाय निरन्तरतायाः अप्रदानानन्तरम् कार्यं कर्तुं मार्गः प्रशस्तीभूतो वर्तते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा योगेश कुमार भट्टराई इत्यनेन कस्यामपि परिस्थितौ दलं न विभजते इत्यत्र विश्वस्ताः भवितुं कार्यकर्तारः अनुरुद्धाः वर्तन्ते। मन्त्री भट्टराई ह्य ताप्लेजुङ जनपदस्य आठराई त्रिवेणी ग्रामपालिकायाः स्थानीय नेतृभिः कार्यकर्तृभिश्च सह मेलने दलस्य अभ्यन्तरे विवादस्य सर्जनं सामान्यमस्तीति भाषमाणः सहमतेः सहकार्यस्य त्यागस्य च मार्गम् अवलम्ब्य दलम् अतिरिक्तं दृढं भूत्वा अग्रे वर्धता एव इति विश्वासं व्यक्तवान्। उपप्रधानमन्त्री ईश्वर पोखरेलः सिंहप्रासादस्थितं प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य कार्यसञ्चालन कक्षं प्रभावकारिरूपेण सञ्चालयितुं निर्दिशति। प्रधानमन्त्री मन्त्रिपरिषद कार्यालयस्य उपप्रधानमन्त्री पोखरेलः ह्यः कार्यसञ्चालन कक्षस्य निरीक्षणस्य क्रमे एतस्मात् कक्षात् इदानीं विधीयमानानां गतिविधीनां सञ्चालने दृष्टानां समस्यानां प्रभावकारितया कार्यसम्पादनार्थं तत्कालं विधातव्यस्य सुधारस्य च विषयेषु निरदिशत्। प्रमुख प्रतिपक्षणो नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशः श्व कार्तिकस्य अष्टाविंशे दिवसे वस्ता। सानेपावर्तिनी नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालये दिवा एकवादने उपवेक्ष्यमाणे उपवेशे दलस्य आगामिनः चतुर्दश महाधिवेशनस्य सामयिक राजनीतेश्च विषयेषु विमृक्ष्यते इति दल कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ कथयति पत्राचार सेवा युगानुकूला विधातव्या। सिंहप्रसाद वर्तिनी संचार मन्त्रालय पत्राचार सेवा विभागस्य पदाधिकारीभिः सह यः आयोजिते अन्तरक्रिया कार्यक्रमे मन्त्री गुरूङ पत्राचार सेवां परिवर्तित परिवेशस्य अनुसारेण अग्रे वर्धापयितुं नूतन चिन्तनेन अग्रे वर्धनस्य आवश्यकतां न्यश्चिनोत्। मन्त्री गुरूङ पत्राचार सेवायाः महत्वं विकसित राष्ट्रेषु इतोपि अधिकं भवतीति भाषमाणः पत्राचार सेवां प्रभावकारिणीं विश्वसनीयाञ्च विधातुं पत्राचार सेवा विभागस्य पदाधिकारिणः निरदिशत्। हेटौडा नगरे गतदिने मोटरसाइकल यान दुर्घटनायां एको जनः मृतोऽस्ति। पूर्व पश्चिम राजमार्गस्य अन्तर्गतं हेटौडोपमहानगरपालिकायाः चतुर्दश वडा क्षेत्रस्य रातो माटे स्थाने मोटरसाइकल यानं दुर्घटितं सद् चालकः बारा जनपदस्य जितपुर सिमरोपमहानगरपालिकायाः परवानीपुरस्य षड्विंशति वर्षीय प्रतीक क्षेत्री मृतः इति जनपद प्रहरी कार्यालयो ज्ञापयति। पूर्व राज्यमन्त्री ओमकार प्रसाद गौचनः ह्यः दिवंगतोऽस्ति। अष्टाशीतितमे वयसि गौचनः काष्ठमण्डपस्य दीर्घायु चिकित्सालये दिवंगतो वर्तते। गौतमः त्रयश्चत्वारिंशदधिकद्विसहस्रतमे विक्रमार्धे स्वास्थ्य राज्यमन्त्री तदनन्तरं शिक्षा संचार सहायक मन्त्री च आसीत्। वीरगंज महानगरपालिकायाः प्रतिमा चतुष्पथस्य निकटे वायुपा सा स्थिते हनुमान प्याकेजिङ उद्योगे गतरात्रौ दुरापन्नेन अग्निदाहेन लक्षशो रूप्यकाणां क्षतिः सम्भूता वर्तते। पोटलिका निर्मातरि उद्योगे सहसा विद्युत परिपथस्य विचलनेन दुरापन्नेन अग्निदाहेन उद्योगस्य यान्त्रिकोपकरणानि उत्पादिताः सामग्र्यः निर्मातृ पदार्थाश्च दहनेन विनष्टाः इति प्रहरिणा ज्ञापितमस्ति। उद्योगे ज्वलितः अग्नि वीरगंज महानगरपालिकायाः द्वयं कलैया उपमहानगरपालिकायाः पोखरिया नगरपालिकायाश्च एकैकं चेति कृत्वा चतुर्णां वारुण यन्त्राणां सहायतया नेपाल प्रहरिणा सशस्त्र प्रहरिणा नेपाली सेनाया स्थानीयवासिनां च सहयोगेन नियन्त्रिता इति पर्सा जनपद प्रहरी कार्यालयस्य प्रहरी परीक्षकः गंगा पन्तः अबोधयत् इति समाचारः।